एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। नेपाली प्रजातन्त्रस्य स्थापनायै कृतप्राणोत्सर्गाणां हुतात्मनां स्मृतौ अस्यैव माघमासस्य दशम दिवसात् प्रारब्ध हुतात्म सप्ताह अद्य विविधै कार्यक्रमै सह सम्पन्नतां याति। एकतन्त्रात्मकस्य राणाशासनस्य अन्यायेभ्य अत्याचारेभ्यश्च मुक्तिं प्रदाय प्रजातान्त्रिक शासन व्यवस्थायाः स्थापनायै कृतजीवनोत्सर्गाणां देशस्य विभिन्नेषु समयेषु सम्पन्नेषु राजनीतिकान्दोलनेषु कृतजीवनोत्सर्गाणां च हुतात्मनां संस्मरणे प्रतिवर्षं माघमासस्य दशम दिवसात् षोडश दिवसं यावत् विभिन्नै कार्यक्रमै सह हुतात्म सप्ताह समायोज्यते। शुक्र राज गंगालाल धर्मभक्त दशरथ चन्द प्रभृति हुतात्मनाम विपुल योगदानेन आत्मबलिदानेन स चतुरधिक शतं वर्षाणि यावत् शासनं विदधतः राणा सर्वकारस्य समाप्तिः अभवत्। सप्ताधिक द्विसहस्रतमे विक्रमवर्षे नेपाले प्रजातन्त्रस्य उदयो जातश्च आसीत्। अवसरेऽस्मिन् राष्ट्रपतिना रामचन्द्र पौडेलेन नागरिकाणां स्वतन्त्रतायै लोकतन्त्रस्य स्थापनायै राष्ट्रियतायाः रक्षायै च आत्मबलिदानं कृतवद्भ्यः हुतात्मभ्यः श्रद्धाञ्जलिः समर्पितोऽस्ति। सर्वकारेण राष्ट्रपतेः रामचन्द्र पौडेलस्य जापान देशस्य भ्रमणं स्वीकृतमस्ति। ह्य उपवेशेन मन्त्रिपरिषदः उपवेशेन नेपाल जापान देशयोः कूटनीतिक सम्बन्ध स्थापनायाः सप्तति वर्षाणां प्राप्तेः अवसरे अस्यैव माघमासस्य अष्टादश दिवसात् एकविंशं दिवसं यावत् जापान देशे आयोक्ष्यमाणे कार्यक्रमे सहभागितायै राष्ट्रपतेः पौडेलस्य नेतृत्वे गच्छते प्रतिनिधिमण्डलाय स्वीकृतिः प्रदातुं निर्णीतमस्ति। सर्वकारस्य प्रवक्ता गृहमन्त्री च ओमप्रकाश अर्यालः असूचयत्। एवमेव मन्त्रिपरिषदः उपवेशेन नेपाल प्रहरिणः कृते खाद्यान्नस्य कृते प्रदीयमानं वित्तं वर्धयितुं निर्णीतम् वर्तते। नेपाल प्रहरिणः खाद्यान्नं खाद्यान्नस्य कृते प्रदीयमानां दैनिकीं वृत्तिं वा वर्धयितुं निर्णीतमस्ति इति मन्त्री अर्यालः असूचयत्। मन्त्रिपरिषदः उपवेशेन नेपाल स्टॉक एक्सचेंज लिमिटेड संस्थायाः पुनर्संरचना सम्बद्धया एतत् विक्रमवर्षीयया परामर्श समित्या प्रस्तुतं प्रतिवेदनं सार्वजनिकर्तुं निर्णीतमस्ति इति सर्वकारस्य प्रवक्ता गृहमन्त्री अर्यालः असूचयत्। गृहमन्त्री ओमप्रकाश अर्यालः सर्वकारेण निर्वाचन सुरक्षां सुदृढां विधाय भयमुक्तं वातावरणं निर्मातुं उच्च प्राथमिकतापूर्वकं कार्यं विधीयमानमस्ति इति उक्तवान् वर्तते। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य पूर्वकार्यस्य विषये ह्य आयोगे सम्भूते विमर्शने गृहमन्त्री अर्यालः शान्ति सुरक्षायां प्रभावसर्जकं यं कमपि दण्डयितुं सर्वकारः प्रतिबद्धोऽस्ति इति प्रावोचत्। विमर्शने कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी निर्वाचन व्यवस्थापनस्य क्रमे आयोगस्य पक्षतः विधीयमानं पूर्वकार्यं सम्पन्नमस्ति इति असूचयत्। प्रतिनिधिसभा सदस्यानां निर्वाचनं निष्पक्षे भयमुक्ते च वातावरणे सम्पादयितुं शान्ति सुरक्षायाः निर्वाचनस्य च समयस्य व्यवस्थापनस्य पूर्वकार्यस्य च विषयेष् विमृष्टमस्ति इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराय असूचयत्। निर्वाचनायोगेन प्रतिनिधिसभा सदस्यानाम् आगामिनि निर्वाचने यथासम्भवं नेपाले एव उत्पादिताः सामग्र्यः प्रयोक्ष्यन्ते इति ज्ञापितं वर्तते। निर्वाचनं मितव्ययी पारदर्शी च विधातुं स्थानीय सामग्रीणां प्रयोगाय प्रोत्साहनस्य उद्देश्येन च आयोगेन यथासम्भवं नेपाले एव उत्पादितानां सामग्रीणां प्रयोगस्य नीतिः अवलम्बिता अस्ति। निर्वाचनस्य कृते समग्रतः एकपञ्चाशत् सामग्र्यः प्रयोक्ष्यन्ते। सम्प्रति त्रिंशत् विधानां सामग्रीणां विकेन्द्रितरूपेण प्रदेशेभ्यः जनपदेभ्यश्च क्रयणं कृत्वा प्रयोगस्य प्रबन्धनं विहितमस्ति इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराय असूचयत्। केन्द्रीयस्तरात् चतुर्दश विधानां सामग्रीणां क्रयणं विधास्यते। प्रायः सामग्रीणां क्रयणाय साक्षात् उत्पादक संस्थाभ्य एव दायित्वं प्रदत्तं वर्तते। षण्णां कोटीनां पञ्चसप्ततिर्लक्षाणां च रूप्यकाणामेव नूतन सामग्र्यः कृताः वर्तन्ते। अन्यः सामग्र्यः प्राक्तनः एव प्रयुक्तः सन्ति इति प्रवक्ता भट्टराय असूचयत्। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधि सभा सदस्यानां निर्वाचनस्य अन्तर्गतं मधेश प्रदेशस्य सहस्रद्वये षष्ट्युत्तरैकशते च मतदानस्थलेषु एकसहस्रं षट्चत्वारिंशदुत्तर द्विशत संख्यातानि मतदानस्थलानि अतिसंवेदनशीलानि निर्धारितानि वर्तन्ते। मधेश प्रदेश प्रहरी कार्यालयस्य अनुसारेण भारतदेशेन सह सम्पृक्त सीमानि अधिकानि मतदान स्थलानि अतिसंवेदनशीलत्वेन वर्गीकृतानि वर्तन्ते। ह्य जनकपुरधामनि आयोजिते पत्रकार सम्मेलने मधेश प्रदेशे प्रतिनिधि सभा सदस्यानां निर्वाचनस्य कृते पञ्चपञ्चाशदुत्तर शतं मतदान स्थलानि संवेदनशीलत्वेन एकोनषष्ट्युत्तरैकशतं मतदान स्थलानि सामान्यानि च निर्धारितानि सन्ति इति ज्ञापितं वर्तते। अधिकार दुरूपयोगानुसन्धान आयोगेन दाङ जनपदवर्तिनः राप्ती स्वास्थ्य विज्ञान प्रतिष्ठानस्य तात्कालिकेन उपकुलपतिना संगीता सिंह भण्डारिणा हिमालयन मेडिटेक प्राली इति यन्त्रापूर्ति संस्थायाः सञ्चालकैश्च सहितानां विंशतिर्जनानां विरुद्धे आरोपपत्रं पञ्जीकारितमस्ति। आयोगेन प्रतिष्ठाने सिटी स्क्यान मेसिन इति चिकित्सायन्त्रस्य क्रयणस्य क्रमे गुणस्तरहीनं यन्त्रम् आनीय सप्तकोटीनाम् एकत्रिंशत् लक्षाणां च रूप्यकाणां भ्रष्टाचारो विहितोऽस्तीति आरोपे काष्ठमण्डपवर्तिनी विशेष न्यायालये आरोपपत्रं पञ्जीकारितमस्तीति आयोगस्य प्रवक्त्रा सुरेश नेउपाने विधेयेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। आयोगेन तात्कालिकस्य उपकुलपतेः भण्डारिणः तात्कालिकस्य रजिस्ट्रार पदीयस्य कैलाश प्रसाद देव इत्यस्य निर्देशकस्य डाक्टर सागरपन्थी इत्यस्य रेडियोलोजी इति नाम्न किरण चिकित्सा विभागस्य प्रमुखस्य बायोमेडिकल इति नाम्नः जैविक चिकित्सायाः स्थपतिनां क्रयणशाखायाः कर्मचारिणां हिमालय मेडिटेक प्राली इति यन्त्रापूर्तिकर्तृ संस्थायाः सञ्चालकानां चेति समग्रतः विंशतिर्जनानां विरुद्धं हानिवित्तस्य कारावासदण्डनस्य च याचनां विधाय आरोपपत्रं पञ्जीकारितमस्तीति आयोगेन ज्ञापितं वर्तते। इति समाचारः।